अष्टादशः परिच्छेदः प्राणलिङ्गस्थलान्तर्गत नवविधलिङ्गस्थलप्रसङ्गः अथ प्राणलिङ्गस्थलम् अगस्त्य उवाच प्रसादिस्थलसम्बद्धा स्थलभेदाः प्रकीर्तिताः प्राणलिङ्गस्थलारूढान् स्थलभेदान् वदस्व मे। श्रीरेणुक उवाच स्थलानां नवकं प्रोक्तं प्राणलिङ्गस्थलाश्रितम् आदावात्मस्थलं प्रोक्तम् अन्तरात्मस्थलं ततः परमात्मस्थलं पश्चात् निर्देहागमसंज्ञकम् निर्भावागमसंज्ञं च ततो नष्टागमस्थलम् आदिप्रसादनामाथ ततोऽप्यन्त्यप्रसादकम् सेव्यप्रसादकम् चाथ शृणुतेषाम् च लक्षणम्। अथ आत्मस्थलम् जीवभावम् परित्यज्य यदा तत्त्वम् विभाव्यते गुरोश्च बोधयोगेन तदात्मायम् प्रकीर्तितः वालाग्रशतभागेन सदृशो हृदयस्थितः अश्नन् कर्मफलम् सर्वम् आत्मा स्फुरति दीपवत् आत्मापि सर्वभूतानाम् अन्तःकरणमाश्रितः अनुभूतो मलासङ्गात् आदिकर्म नियन्त्रितः जपायोगाद्यथा रागः स्फटिकस्य मणेर्भवेत् तथाहङ्कारसम्बन्धात् आत्मनो देहमानिता अशरीरोऽपि सर्वत्र व्यापकोऽपि निरञ्जनः आत्मा मायाशरीरस्थः परिभ्रमति संश्रुतौ आत्मस्वरूपविज्ञानम् देहेन्द्रियविभागतः अखण्डब्रह्मरूपेण तदात्मप्राप्तिरुच्यते न चास्ति देहसम्बन्धो निर्देहस्य स्वभावतः अज्ञानकर्मयोगेन देही भवति भुक्तये नासौ देवो न गन्धर्वो न यक्षो नैव राक्षसः न मनुष्यो न तिर्यक्च न च स्थावरविग्रहः तत्तच्छरीरयोगेन तत्तन्नाम्ना विराजते नानाकर्मविपाकाश्च नानायोनिसमाश्रिताः नानायोगसमापन्ना नानाबुद्धिविचेष्टिताः नानाभोगसमारूढा नानासंकल्पकारिणः अस्वतन्त्राश्च किञ्चिज्ञा किञ्चित्कर्तृत्वहेतवः लीलाभाजनतां प्राप्ता शिवस्य परमात्मनः चोदिता परमेशेन स्वस्वकर्मानुरूपतः स्वर्गं वा नरकं वापि प्राणिनो यान्ति कर्मिणः पुनः कर्मावशेषेण जायन्ते गर्भकोटरात् जातामृताः पुनर्जाताः पुनर्मरणभाजिनः भ्रमन्ति घोरसंसारे विश्रान्तिकथया विना जीवत्वं दुःखसर्वस्वं तदिदं मलकल्पितम् निरस्यते गुरोर्बोधात् ज्ञानशक्तिः प्रकाशते अथ अन्तरात्मस्थलम् यदा निरस्तं जीवत्वं भवेद्गुर्वनुबोधतः तदान्तरात्मभावोऽपि निरस्तस्य भवेद्ध्रुवम् देहस्थितोऽप्ययम् जीवो देहसङ्गविवर्जितः बोधात्परात्मभावित्वात् अन्तरात्मेति कीर्तितः आत्मान्तरालवर्तित्वात् जीवात्मपरमात्मनोः योगादुभयधर्माणाम् अन्तरात्मेति कीर्तितः अहङ्कारस्य सम्बन्धात् मनुष्यत्वादिविभ्रमः न स्वभाव इति ज्ञानात् अन्तरात्मेति कथ्यते यथा पद्मपलाशस्य न सङ्गो वारिणा भवेत् तथा देहजुषोऽप्यस्य न शरीरेण सङ्गतिः नीडस्थितो यथा पक्षी नीडाद्भिन्नः प्रदृश्यते देहस्थितस्तथात्मायम् देहादन्यः प्रकाश्यते आच्छाद्यते यथा चन्द्रो मेघैरासङ्गवर्जितैः तथात्मा देहसङ्घातै असङ्गपरिवेष्टितः निर्ममो निरहङ्कारो निरस्तोपाधिविक्लवः देहस्थोऽपि सदा ह्यात्मा शिवं पश्यति योगतः भोक्तृभोज्यपरित्यागात् प्रेरकस्य प्रसादतः भोक्तृताभावगलितः स्फुरत्यात्मा स्वभावतः सर्वेषां प्रेरकत्वेन शम्भुरन्तस्थितः सदा तत्परिज्ञानयोगेन योगी नन्दति मुक्तवत्। अथ परमात्मस्थलम्। निर्धूते तत्प्रबोधेन मले संसारकारणे सामरस्यात् परात्मस्थात् परमात्मायमुच्यते। सर्वेषामात्मभेदानाम् उत्कृष्टत्वात् स्वतेजसा परमात्मा शिवः प्रोक्तः सर्वगोपे प्रकाशवान्। ब्रह्माण्डबुद्बुदस्तोमा यस्य मायामहो दधौ उन्मज्जन्ते निमज्जन्ति परमात्मा स उच्यते। यस्मिन् ज्योतिर्गणाः सर्वे स्फुलिङ्गा इव पावकात् उत्पत्य विलयं यान्ति तद्रूपं परमात्मनः। यस्मिन् समस्तवस्तूनि कल्लोला इव वारिधौ सम्भूय लयमायान्ति तद्रूपं परमात्मनः। निरस्तमलसम्बन्धम् निःशेषजगदात्मकम् सर्वतत्त्वोपरिप्रोक्तम् स्वरूपं परमात्मनः। यथा व्याप्य जगत्सर्वम् स्वभासा भाति भास्करः तथा स्वशक्तिभिर्व्याप्य परमात्मा प्रकाशते। विश्वतो भासमानोऽपि विश्वमाया विलक्षणः परमात्मा स्वयं ज्योति रूपो जीवात्मनां भवेत्। अथ निर्देहागमस्थलम्। देहिनोऽपि परातत्त्व भाविनो निरहङ्कृतेः निरस्तदेहधर्मस्य निर्देहागम उच्यते। गलिते ममता हन्ते संसारभ्रमकारणे पराहन्ताम् प्रविष्टस्य कुतो देहः कुतो रतिः। केवले निष्प्रपञ्चौघे गम्भीरे चिन्महो दधौ निमग्नमानसो योगी कथं देहं विचिन्तयेत्। अपरिच्छेद्यमात्मानं चिदंबरमिति स्मरन् देहयोगेऽपि देहस्थै विकारैर्न विलिप्यते। अखण्डसंविदाकारं अद्वितीयं सुखात्मकम् परमाकाशमात्मानं मन्वानः कुत्र मुह्यति। ఉపాధి విహిత భేద దృశ్యంతే చైక వస్తుని ఇతి యస్య మతిస్సోయం కథం దేహమితో భవేత్. భేదబుద్ధి సమస్తానాం పరిచ్ఛేదస్య కారణం అభేదబుద్ధౌ జాతాయాం పరిచ్ఛేదస్య కా కథా. శివోహమితి యస్యాస్తి భావనా సర్వగామిని తస్య దేహేన సంబంధః కథం స్యాదమితాత్మనః. అథ నిర్భావాగమస్థలం వ్యతిరేకాత్ స్వరూపస్య భావాంతర నిరాకృతే భావో వికార నిర్ముక్తో నిర్భావాగమ ఉచ్యతే. అహం బ్రహ్మేతి భావస్య వస్తుద్వయ సమాశ్రయః ఏకీభూతస్య చిద్వ్యోమ్ని తదభావో వినిశ్చితః. ఏకభావ నిరూఢస్య నిష్కలంకే చిదంబరే క్వ జాతి వాసనా యోగః క్వ దేహిత్వం పరిభ్రమః. శూన్యే చిదంబరే స్థానే దూరే వాంగ్మనసాధ్వనః విలీనాత్మా మహాయోగీ కేన కిం వాపి భావయేత్. అవిశుద్ధే విశుద్ధే వా స్థలే దీప్తిర్యథా రవే పతత్యేవం సదా ద్వైతి సర్వత్ర సమవృత్తిమాన్. న బిభేతి జరా మృత్యో న క్షుధాయా వశం వ్రజేత్. పరిపూర్ణ నిజానందం సమాస్వాదన్ మహాసుఖీ. కుతో భావః కుతశ్చిత్తం కుతః సంకల్పవాసనా నిస్తరంగే చిదం బోధౌ విలీనస్య మహాత్మనః. అథ నష్టాగమస్థలం భేదశూన్యే మహాబోధే జ్ఞాత్రాదిత్రయహీనకః. జ్ఞానస్య నష్టభావేన నష్టాగమ ఇహోచ్యతే. అద్వైత వాసనావిష్ట చేతసాం పరయోగినాం పశ్యతామంతరాత్మానం జ్ఞాతృత్వం కథమన్యథా. అకర్తాహమవేత్తాహం అదేహోహం నిరంజనః ఇతి చింతయతః సాక్షాత్ సంవిదేవ ప్రకాశతే. నిరస్తభేదజల్పస్య నిరీహస్య ప్రశామ్యతః స్వేమహిమ్ని విలీనస్య కిమన్యజ్ఞేయముచ్యతే. ఏకీభూతే నిజాకారే సంవిదా నిష్ప్రపంచయా केन किं वेदनीयं तद् वेत्ता कः परिभाष्यते। महासत्ता महासंविद् विश्वरूपा प्रकाशते। तद्विना नास्ति वस्त्वेकं भेदबुद्धिं विमुञ्चतः। अथ आदिप्रसादिस्थलम्। सर्वाधिष्ठातृकशम्भुः आदिस्तस्य प्रसादतः। आदिप्रसादीत्युक्तोऽयम् निर्विकारपदे स्थितः। अनेकजन्मशुद्धस्य निरहङ्कारभाविनः। अप्रपञ्चस्यादिदेवः प्रसीदति विमुक्तये। शिवप्रसादसम्पत्त्या शिवभावमुपेयुषे। शिवादन्यज्जगज्जालम् दृश्यते न च दृश्यते। शम्भो शिवप्रसादेन संसारच्छेदकारिणा। मोहग्रन्थिं विनिर्भिद्य मुक्तिं यान्ति विवेकिनः। विना प्रसादमीशस्य संसारो न निवर्तते। विना सूर्योदयं लोके कुतस्यात्तमसोलयः। सर्वानुग्राहकः शम्भुः केवलं कृपया प्रभुः। मोचयेत् सकलान् जन्तून् न किञ्चिदिह कारणम्। अथ अन्त्यप्रसादिस्थलम्। लयः सर्वपदार्थानाम् अन्त्य इत्युच्यते बुधैः। प्रसादोऽनुभवस्तस्य तद्वानन्त्यप्रसादवान्। देवतिर्यं मनुष्यादि व्यवहारविकल्पना। मायाकृता परे तत्त्वे तल्लये तत्क्षयो भवेत्। साक्षात्कृते परे तत्त्वे सच्चिदानन्दलक्षणे। क्व पदार्थपरिज्ञानम् कुतो ज्ञातृत्वसम्भवः। पदार्था स्वप्नसन्दृष्टा यथा बोधे लयङ्गताः। तथा संसारजा वावा लीयन्ते ब्रह्मबोधतः। सुषुप्तस्य यथा वस्तु न किञ्चिदभिभासते। तथा मुक्तस्य जीवस्य न किञ्चिद्वस्तु दृश्यते। यथाकाशमविच्छिन्नम् निर्विकारम् स्वरूपतः। तथा मुक्तस्य जीवस्य स्वरूपमवशिष्यते। न किञ्चिदपि मुक्तस्य दृश्यम् कर्तव्यमेव वा। सुखस्फूर्तिस्वरूपेण निश्चला स्थितिरुच्यते। शिवाद्वैतपरिज्ञान शिथिलाशेषवस्तुनः। केवलं संविदुल्लास दर्शिनः केन को भवेत्। अथ सेव्यप्रसादिस्थलम्। सेव्यो गुरुस्समस्तानां शिव एव न संशयः। प्रसादोऽस्य परानन्द प्रकाशः परिकीर्त्यते। सेव्यो गुरुस्मृतो ह्यस्य प्रसादोऽनुभवो मतः। तदेकावेशरूपेण तद्वान् सेव्यप्रसादवान्। गुरुदेवः परं तत्त्वं परतत्त्वं गुरुस्मृतः। तदेकत्वानुभावेन न किञ्चिदवशिष्यते। अपरिच्छेद्यमात्मस्थम् अवाङ्मनसगोचरम् आनन्दम् पश्यताम् पुंसाम् रतिरन्यत्र का भवेत्। ज्ञानामृतेन तृप्तस्य किमन्यैर्भोज्यवस्तुभिः। ज्ञानादेव परानन्दम् प्रकाशयति सच्छिवः। मुक्तिरेव परा तृप्तिः सच्चिदानन्दलक्षणा। नित्यतृप्तस्य मुक्तस्य किमन्यैर्भोगसाधनैः। न बाह्यं कर्म तस्यास्ति न चान्तर्नैव कुत्रचित्। शिवैक्यज्ञानरूढस्य देहभ्रान्तिं विमुञ्चतः। न कर्मबन्धे न तपोविशेषे न मन्त्रयोगाभ्यसने तथैव ध्यानेन बोधे च तथात्मतत्त्वे मनः प्रवृत्तिः परयोगभाजाम्। ॐ तत्सदिति श्रीशिवगीतेषु सिद्धान्तागमेषु शिवाद्वैतविद्यायां शिवयोगशास्त्रे श्रीरेणुकागस्त्यसंवादे वीरशैवधर्मनिर्णये श्रीशिवयोगिशिवाचार्यविरचिते श्रीसिद्धान्तशिखामणौ लिङ्गस्थलान्तर्गत प्राणलिङ्गिस्थले आत्मस्थलादि नवविधस्थलान्तर्गतप्रसङ्गो नाम अष्टादशः परिच्छेदः।